Supreme Lord, eternal truth, let us obey thee alone and live according to truth.
अग्ने जरस्व स्वपत्या आयुन्यूरजा तिन्वस्व समिशो दिदीनः विश्वतिं यौवमतिथिं नरः सदायन्तार धीनामुषिजम्